एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। राष्ट्रिय सुरक्षा परिषदः उपवेशे अन्तर्राष्ट्रिय परिस्थितिर् विषये सम्प्रत्येव भारत पाकिस्तान देशयोर्मध्ये विकसितस्य घटनाक्रमस्य परिस्थितेः प्रतिकरणं कर्तुम् अवलम्बनीयायाः रणनीतिर्विषये च विमृष्टं वर्तते। प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां ह्यः उपविष्टे परिषदः अष्टात्रिंशे उपवेशे विद्यमान परिस्थितेः ततः उत्पन्न सम्भावित परिस्थितेश्च मूल्यांकनं विधाय आवश्यक रणनीतेः अवलम्बनस्य सम्बन्धे च विमृष्टमस्ति। उपवेशे देशस्य सुरक्षा परिस्थितेः सूक्ष्म विश्लेषणं कृत्वा आवश्यक रणनीतिम् अवलम्ब्य च अग्रे वर्धनस्य विषये च विमर्शनम् अभूत् इति रक्षा सचिवेन परिषदः सदस्य सचिवेन रामेश्वर दंगालेन ह्यः प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। एतत्पूर्वं गृहमन्त्रिणः रमेश लेखकस्य अध्यक्षतायाम् उपविष्टे केन्द्रीय सुरक्षा समितेः उपवेशे भारत पाकिस्तान देशयोः मध्ये विवादे समुत्पन्ने तयोः द्वन्द्वेन आपतितस्य प्रभावस्य सम्भावितस्य काठिन्यस्य एतयोः देशयोः विद्यमानानां नेपाली नागरिकाणां सुरक्षायाश्च विषयेषु विमृष्टमासीत्। उपवेशे सीम प्रवेश बिन्दुतः विमानस्थलं यावत् सुरक्षा व्यवस्थां विशेष निरीक्षणेन सह प्रभावपूर्णां विधातुं राष्ट्रियान्तराष्ट्रिय सुरक्षा व्यवस्थां सुनिश्चितां विधातुं सम्भावितानां काठिन्यानां प्रतिकारं विधातुं च विमृष्टमासीदिति गृहमन्त्रालयस्य प्रवक्ता रामचन्द्र तिवारी असूचयत्। देशे अवांछितं गतिविधिं रोद्धुं नेपाल भारतयोः सीमासु विमानस्थलेषु संवेदनशीलक्षेत्रेषु च निरीक्षणस्य व्यवस्थया सह सुरक्षा संयन्त्रम् उच्च सावधानावस्थायां स्थापयितुं च निर्णीतमस्ति इति गृहमन्त्रालयस्य प्रवक्ता तिवारी असूचयत्। दशमः राष्ट्रिय पत्रकारिता दिवसः ह्यः विभिन्नै कार्यक्रमैस्सह समायोजितोऽस्ति। गोरखापत्रस्य प्रथमं प्रकाशन दिवसम् उपलक्ष्य वैशाख मासस्य चतुर्विंशे दिवसे राष्ट्रिय पत्रकारिता दिवसोऽयं मन्यते। अष्टपञ्चाशदुत्तरैकोनविंशतितमस्य वैक्रमादस्य वैशाख मासस्य चतुर्विंशात् दिवसात् गोरखापत्रस्य साप्ताहिकं प्रकाशनं प्रारब्धमासीत्। सर्वकारेण त्रिसप्तत्युत्तर द्विसहस्रतमे वैक्रमाब्दे दिवसमिमं राष्ट्रियरूपेण आयोजयितुं निर्णीतमासीत्। पत्रकारिता दिवसस्य अवसरे राष्ट्रपतिः रामचन्द्र पौडेलः राष्ट्रिय पत्रकारिता पुरस्कारेण वरिष्ठ पत्रकार सम्मानेन च देशस्य विभिन्नान् पत्रकारान् सम्मानितवान्। राष्ट्रिय पत्रकारिता दिवसस्य अवसरे सूचना संचार प्रविधि मन्त्रालयेन आयोजितं वरिष्ठ पत्रकार सम्मान कार्यक्रमं राष्ट्रिय पत्रकारिता पुरस्कार वितरण समारोहं च सम्बोधयन् राष्ट्रपतिः पौडेलः पत्रकारिता क्षेत्रं परिवर्तनस्य संवाहकः राष्ट्रनिर्माणस्य सशक्तं प्रभावपूर्णश्च माध्यमो वर्तते इति उक्तवान् अस्ति। तदवसरे राष्ट्रपतिः पौडेलः नेपालस्य राजनीतिक सामाजिक सांस्कृतिक परिवर्तनेषु नेपाली पत्रकारिता क्षेत्रेण महत्वपूर्णा भूमिका निर्व्यूढा अस्ति इति अगदत्। राष्ट्रपतिः पौडेलः समाचार लेखनमाधृत्य पत्रकाराणाम् असुरक्षितावस्थायाः अन्त्यं कष्टमुक्त वातावरणे समाचार संकलनस्य सम्प्रेषणस्य अवस्थायाः सुनिश्चिततां प्रति सर्वहि ध्यानं देयम् इति प्रावोचत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ नेपालस्य संचार क्षेत्रं व्यवस्थितं मर्यादितं च विधातुं सर्वकारेण मीडिया काउन्सिल विधेयकं संचार विधेयकं सामाजिक सञ्जाल सम्बद्धं विधेयकं च अग्रेसारितानि सन्ति इति असूचयत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिवः राधिका अर्यालः सामाजिक सञ्जालात् पत्रकारिता क्षेत्रं भिन्नमस्ति इति चर्चयन्ति क्षेत्रमिदं व्यवस्थितं विधातुं मन्त्रालयेन विधि निर्माणं प्रारब्धमस्ति इति असूचयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति नेपालस्य सर्वाधिकेन पुरातनेन गोरखापत्रेण दैनिकेन पत्रकारिता जगति नेपाली भाषायाः मानकभाषा निर्धारिता भवति। गोरखापत्र प्रकाशनस्य पञ्चविंशत्युत्तर शततमस्य वर्ष प्रवेशनस्य अवसरे ह्य गोरखापत्र संस्थानेन आयोजिते कार्यक्रमे प्रधानमन्त्री ओली गोरखापत्रेण देशस्य सभ्यता संस्कृतिभ्याम् सहैव अर्थतन्त्रस्य नेपाली भाषायाः विकासस्य च कृते प्रदत्तं योगदानं प्राशंसत्। तदवसरे प्रधानमन्त्री ओली पश्चात्तन समये कृत्रिम बौद्धिकतायाः प्रयोगं कृत्वा चरित्र हत्यायै मिथ्या समाचाराणां सत्य समाचाराणां रूपेण प्रसारणं कृत्वा तस्य पुष्टिकरणाय च प्रवृत्तेभ्यः संचार माध्यमेभ्यः गोरखापत्रेण आत्मानं रक्षणीयमित्यत्र बलं प्रादात्। कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ गोरखापत्र दैनिकं सार्वजनिक सेवा प्रकाशन माध्यमस्य रूपेण अग्रे वर्धनीयम् इति विचारं व्यक्तवान्। कार्यक्रमे प्रधानमन्त्रिणा ओलिना गोरखापत्रस्य पञ्चविंशत्युत्तर शततम वर्ष प्रवेशनस्य अवसरे प्रकाशितायाः युगसाक्षी नाम्न्याः स्मारिकायाः लोकार्पणेन सह वरिष्ठ पत्रकारः गोरखापत्र संस्थानस्य पूर्वाध्यक्षः विजय चालिसे एवं अन्य उत्कृष्ट पत्रकारः कर्मचारिणश्च सम्मानिताः आसन्। प्रतिनिधिसभायाः ह्यस्तनोपवेशेऽपि आगामिनः आर्थिकवर्षस्य कृते सर्वकारस्य नीतिकार्यक्रमान् आधृत्य विमर्शनम् अचलत्। विमर्शने नेपाली कांग्रेस दलस्य सांसदः एनपी साउद, नेकपा एमाले दलस्य ईश्वर बहादुर रिजाल, नेकपा माओवादी केन्द्रस्य सांसदः महेन्द्र राय यादवः, अन्य सांसदः विराज भक्त श्रेष्ठः, वीणा लामा च धारणां व्यक्तवन्तः। विमर्शने सांसदः शिक्षा स्वास्थ्य पर्यटन जलस्रोत कृषि मार्ग पूर्वाधार निर्माण प्रभृतिषु आयव्ययकं केन्द्रीकर्तव्यम् इति बलं प्रादुः। राष्ट्रियसभा अन्तर्गतायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे अधिकार दुरूपयोगानुसन्धानायोगस्य चतुस्त्रिंशत्तमं प्रतिवेदनमाधृत्य विमृष्टमस्ति। उपवेशे समितेः सदस्यै उत्थापितान् प्रश्नान् उत्तरयन् आयोगस्य प्रमुखायुक्तः प्रेम कुमार राई व्यक्तेः दलस्य परिचयस्य च आधारेण भ्रष्टाचारिणां संरक्षण कार्यं न कृतमिति स्पष्टीकृतवान् आसीत्। प्रमुखायुक्तः राई देशस्य जनतायाश्च अहिते अनियमिततां विहितवद्भ्यो जनेभ्यः आश्रयः न प्रदेयः इति विषये आयोगः स्पष्टोऽस्तीति अवदत्। रक्षा मन्त्री मानवीर राई निगदति राष्ट्रिय गौरवस्य काष्ठमण्डप तराई मधेस द्रुतमार्गायोजनायाः अन्तर्गतस्य काष्ठमण्डपस्य प्रस्थानबिन्दौ खोकना क्षेत्रे दृष्टाः समस्याः शीघ्रमेव समाधास्यन्ते। मन्त्रालये ह्य आयोजितायां वर्तमान आर्थिक वर्षस्य तृतीय त्रैमासिक प्रगति समीक्षायां मन्त्रालय स्तरीय विकास समस्या समाधान समितेः उपवेशे च रक्षा मन्त्री राई खोकना क्षेत्रे भूम्यधिग्रहणस्य क्षतिपूर्ति वितरणस्य सम्भावितस्य विकल्पस्य पुनर्निर्माणस्य विस्तृत सम्भाव्यताध्ययन सम्बद्धस्य च विषयेष् प्रतिवेदनं निर्माय निर्णयार्थं प्रस्तुतमस्तीति अगदत्। तदवसरे राष्ट्रिय योजना आयोगस्य उपाध्यक्षः प्राध्यापकः डाक्टर शिवराज अधिकारी प्रधान सेनापतिः अशोकराज सिग्देलश्च समस्यानां जटिलतां परिहर्तुं कार्यं करणीयम् इति धारणां व्यक्तवन्तौ। कञ्चनपुरवर्तिनः मूलराजमार्गस्य कार्यम् अन्तिमे चरणे प्राप्तमस्ति। कञ्चनपुर जनपदस्य डोकेबजार स्थानात् बेदकोट नगरपालिकायाः दैजी स्थान पारन्तिकं 62 किलोमीटर परिमितं मार्गं त्रिषु खण्डेषु विभज्य एतस्य निर्माणाय त्रिसप्तत्युत्तर 2000 वैक्रमाब्दस्य फाल्गुन मासे संविदा सम्भूता अस्ति। केषुचित् भागेषु विवादेन निर्माण कार्यस्य विलम्बनं सदपि चतुश्चत्वारिंशत् किलोमीटर मितस्य मार्गस्य वज्रीकरण कार्यं सम्पन्नम् अस्ति।